ओम अथ श्री गजेन्द्र मोक्ष स्तोत्रम् श्री सुक उवाच ओम एवं व्यवसितो बुद्ध्या समाधाया मनो हृदि जजाप परमं जाप्यं प्राग्वन्यन्यनुशिक्षितम् गजेन्द्र उवाच ओम नमो भगवते तस्मै यद् एतच्चिदात्मकम् पुरुषायादि बीजाय परेशाय विधीमहि यस्मिन्निदं यतश्चेदं येनेदं या इदं स्वयं योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयंभुवम् यः स्वात्मनिदं निजमाययार्पितं क्वचिद्विभातं क्वचतिरोहितम् अवेद्रुकस्ताक्षुभयं तदीक्षते स आत्ममूलोऽवतु मां परात्परः कालेन पञ्चत्वमितेषु कृष्णनो लोकेषु कालेषु च सर्वहेतुषु समस्तदासीद् गहनं गभीरम् यस्तस्य पारेऽभिविराजते विभुः न यस्य देवारिषया पदं विदुर्जन्तु पुनः कोऽर्हति गन्तुमीरितुम् यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणा समावतु द्रक्षवो यस्य पदं सुमङ्गलम् विमुक्तसङ्गा मुनया सुसाधवा चरन्त्यलोकवृतमवृणं वने भूतात्मभूता सुहृदा समे गति न वेद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा तथापि लोकाप्ययसंभवायया स्वमायया तान्यनुकालमृच्छति तस्मै नमः परेशाय ब्रह्मणे नन्तशक्तये अरूपायोरूपाय नमः आचार्यकर्मणि नमः आत्मप्रदीपाय साक्षिणे परमात्मने नमो गिरां विदुराय मनसश्चेतसामपि सत्त्वेन प्रतिलभ्याय नैष्कर्मेण विपश्यता नमः कैवल्यनाथाय निर्वाणासुखसंविदे नमः शान्ताय घोराय मूढाय गुणधर्मिणे निर्विशेषाय साम्याय नमो ज्ञानघनाय च क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे पुरुषायात्ममूलाय मूलप्रकृतये नमः सर्वेन्द्रियगुणदृष्टे सर्वप्रत्ययहेतवे आससाक्षाय योक्ताय सदाभासाय ते नमः नमो नमस्ते खिलकारणाय निष्कारणायाद्भुतकारणाय सर्वागमाम्नाय महार्णवाय नमोपवर्गाय परायणाय गुणारणिच्छन्न चेदूष्मपाय तच्छोभविस्फूर्जितमानसाय नैष्कर्म्यभावेन विवर्जितागमा स्वयं प्रकाशाय नमः करोमि मातृप्रपन्न पशुपात विमोक्षणाय मुक्ताय भूरि करुणाय नमो लयाय स्वांसेन सर्वतनुभृन्मनसि प्रतीता प्रत्यग्दृशे भगवते बृहते नमस्ते आतात्मजाप्तग्रहवीत् जनेषु शक्तेर्दुष्प्रापणाय गुणसङ्गविवर्जिताय मुक्तात्मभि स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति किं त्वाशिशोरात्यपि देहमव्ययम् करोतु मेद हृदयो विमोक्षणम् एकान्तिनो यस्य न कञ्चनार्थम् वाञ्छन्ति एवे भगवत्प्रपन्नः अत्यद्भुतं तच्चरितं सुमङ्गलम् गायन्त आनन्द समुद्र मग्ना समक्षरं ब्रह्म परं परेशमव्यक्तमात्यात्मिक योग गम्यम् अतीन्द्रियं सूक्ष्म विवासि दूर मनन्तमाद्यं परिपूर्णमीडे यस्य ब्रह्मादयो देवा वेदा लोकश्चराचरा नामरूपा विभेदेन अल्प्या च कलया कृतः यथार्थि स्वप्ने सवितोर्कवस्तयो निर्यान्ते संयान्यसकृष्वरोचिसा तथा यतोऽयं गुणसंप्रवाहो बुद्धिर्मनकानि शरीरसर्गा सवेन देवा स्वरमार्चतीर्यन् न स्त्री न कण्डो न पुमान् न जन्तु नायं गुणकर्म न सन्न चासन् निषेदशेषो जयतादशेषा जिजेविसेनाहमिहामुयाकी अन्तर्बहिश्चावृतये भयोन्या इच्छामि काले ननयस्य विप्लव तस्यात्मलोकावरणस्य मोक्षम् सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसं विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् योगरन्दित कर्माणो हृदयोग विभाविते योगिनोऽयं प्रपश्यन्ति योगे सन्तं नतोऽस्म्यहम् नमो नमस्तु व्यमसय्य वेगा सक्ते त्रयाखिल द्विगुणाय प्रपन्न पालाय दुरन्त सत्तये कदिन्द्रियाणामनवाप्यवर्त्मनि नायं वेद स्वमात्मानं यच्छत्याहन्दियाहतम् तं दुरत्यये माहात्म्यं भगवन्तमितोऽस्म्यहम् श्रीसुक उवाच एवं गजेन्द्रमुपवर्णित निर्विशेषान् ब्रह्मादयो विविधलिङ्गविदाभिमानः नैते यदोपसत्रपूर्निखिलात्मतत्त्वात् तत्राखिला मर्मयो हरिराविरासीत् तं तद्वदार्थमुपलभ्य जगन्निवास स्तोत्रं निशम्य दिविजये सहसंस्तुवद्वि छन्दोमयेन गरुडेन समुह्यमाना चक्रायुधोऽभ्यगमदासु यतो गजेन्द्र सोऽन्तः सरस्युरुबलेन गृहीत आर्तो दृष्ट्वा गरुत्मति हरिखौपात चक्रम् उक्षेप्य साम्बुजकरं गिरमाह कृत्रा नारायणाखिल गुरो भगवन् नमस्ते तं वीक्ष्य पीडितमज सहसावतीर्य सग्राहमासु सरसा कृपयो जहार ग्राहाद् विपाटित मुखा दरिडां गजेन्द्र सम्पश्यतां हरिरमो मुषदो स्त्रियाणाम् ॐ अथ श्री गजेन्द्र मोक्षस्तोत्रम् सम्पूर्णम्।